ज्ञानं सततं रक्षेत् इष्टं धर्मेण योजयेत् वर्तमानेन कालेन वर्तयन्ते विचक्षणा स्वधर्मे निधनं श्रेयः परधर्मो भयावह पितृधर्मो हतो हन्ति धर्मो रक्षति रक्षितः पुत्रस्पर्शात् सुखतरः स्पर्शो लोकेन विद्यते पिता पुत्रस्य कारणम्।